ओम नमो भगवते वासुदेवाय। अथैकत्रिंशोऽध्यायः। मैत्रेय उवाच। तत उत्पन्न विज्ञाना आश्वथोक्षजभाषितम् स्मरन्त आत्मजे भार्याम् विसृज्य प्राव्रजन् गृहात्। दीक्षिता ब्रह्मसत्रेण सर्वभूतात्ममेधसा प्रतीच्यां दिशि वेलायां सिद्धोऽभूत् यत्र जाजलिः। तान्निर्जितप्राणमनोवचो दृशो जितासनान् शान्तसमानविग्रहान्। परेमले ब्रह्मणि योजितात्मनः सुरासुरेड्योदृशे स्म नारदः। तमागतं त उत्थाय प्रणिपत्याभिनन्द्य च पूजयित्वा यथादेशं सुखासीनमथा ब्रुवन् प्रचेतस ऊचुः। स्वागतं ते सुरर्षेद्य दिष्ट्या नो दर्शनं गतः। तव चङ्क्रमणं ब्रह्मन्नभयाय यथा रवेः। यदा दिष्टं भगवता शिवेनाधोक्षजेन च तद्गृहे सुप्रसक्तानां प्रायः क्षपितं प्रभो। तन्न प्रद्योतयाध्यात्मज्ञानं तत्त्वार्थदर्शनं येनाञ्जसा तरिष्यामो दुस्तरं भवसागरं। मैत्रेय उवाच। इति प्रचेतसां पृष्टो भगवान् नारदो मुनिः भगवत्युत्तमश्लोक आविष्टात्मा प्रवीण नृपान्। नारद उवाच। तज्जन्मतानि कर्माणि तदायुस्तन्मनोवचः नृणां येनेह विश्वात्मा सेव्यते हरिरीश्वरः। किं जन्मभिस्त्रिभिर्वेह शौक्लसावित्रयाज्ञिकैः कर्मभिर्वा त्रयी प्रोक्तैः पुंसोऽपि विबुधायुषा श्रुतेन तपसा वा किं वचोभिश्चित्तवृत्तिभिः बुद्ध्या वा किं निपुणया बलेनेन्द्रियराधसा किं वा योगेन साङ्ख्येन न्यासस्वाध्याययोरपि किं वा श्रेयोभिरन्यैश्च न यत्रात्मप्रदो हरिः। श्रेयसामपि सर्वेषामात्मा यवधिरर्थतः सर्वेषामपि भूतानां हरिरात्मात्मदप्रियः। यथा तरोर्मूलनिषेचनेन तृप्यन्ति तत्स्कन्दभुजोपशाखाः प्राणोपहाराच्च यथेन्द्रियाणां तथैव सर्वार्हणमच्युतेज्या यथैव सूर्यात् प्रभवन्ति वारः पुनश्च तस्मिन् प्रविशन्ति काले। भूतानि भूमौ स्थिरजङ्गमानि तथा हरावेव गुणप्रवाहः। एतत्पदं तज्जगदात्मनः परं सकृद्विभातं सवितुर्यथा प्रभा यथा सवो जागृति सुप्तशक्तयो द्रव्यक्रियाज्ञानभिदाभ्रमात्ययः। यथा नभस्य प्रथमप्रकाशा भवन्ति भूपान भवन्त्यनुक्रमात् एवं परे ब्रह्मणि शक्तयस्तमो रजस्तम सत्त्वमिति प्रवाहः। तेनैकमात्मानमशेषदेहिनां कालं प्रधानं पुरुषं परेशं स्वतेजसाध्वस्तगुणप्रवाहमात्मैकभावेन भजध्वमद्धा दयया सर्वभूतेषु सन्तुष्ट्या येन केन वा सर्वेन्द्रियोपशान्त्या च तुष्यत्या सुजनार्दनः। अपहतसकलैषणामलात्मन्यविरतमेधितभावनोपहूतः निजजनवशगत्वमात्मनो यन्न सरति छिद्रवदक्षरः सतां हि न भजति कुमनीषिणां स इच्याम् हरिरधनात्मधनप्रियोरसज्ञः। श्रुतधनकुलकर्मणां मदैर्ये विदधति पापमकिञ्चनेषु सत्सु श्रियमनुचरतीं तदर्थिनश्च द्विपदपतीन् विबुधांश्च यत्स्वपूर्णः। न भजति निजभृत्यवर्गतन्त्रः कथम विसृजेत्तुमान् कृतज्ञः। मैत्रेय उवाच। इति प्रचेतसो राजन्नन्याश्च भगवत्कथाः श्रावयित्वा ब्रह्मलोकं ययौ स्वायम्भुवो मुनिः। तेऽपि तन्मुखनिर्यातं यशो लोकमलापहम् हरेर्निशम्य तत्पादं ध्यायन्तस्तद्गतिं ययुः। एतत्तेऽपि हितं क्षत्तर्यन्मां त्वं परिपृष्टवान् प्रचेतसां नारदस्य संवादं हरिकीर्तनम्। श्रीशुक उवाच। य एष उत्तानपदो मानवस्यानुवर्णितः वंशः प्रियव्रतस्यापि निबोध नृपसत्तम यो नारदादात्मविद्यामधिगम्य पुनर्महीम् भुक्त्वा विभज्य पुत्रेभ्य ऐश्वरं समगात्पदम् इमां तु कौशारविणोपवर्णितां क्षत्ता निशम्याजितवादसत्कथाम् प्रवृद्धभावो श्रुकलाकुलो मुनेर्दधारमूर्ध्नाचरणं हृदा हरेः। विदुर उवाच। सोऽयमद्य महायोगिन् भवता करुणात्मना दर्शितस्तमतः पारो यत्रा किञ्चन गोहरिः। श्रीशुक उवाच। इत्यानम्यतमा मन्त्र्य विदुरोगजसाह्वयम् स्वानां दिदृक्षुः प्रययौ ज्ञातीनां निर्वृताशयः। एतद्यः शृणुयाद् राजन् राज्ञां हर्यर्पितात्मनाम् आयुर्धनम यशस्वस्ति गतिमैश्वर्यम् आप्नुयात्। एतद्यः शृणुयात् राजन् राज्ञाम् हर्यर्पितात्मनाम्। आयुर्धनम यशस्वस्ति गतिमैश्वर्यम् आप्नुयात्। ओम स्वस्ति श्रीमद्भागवते महापुराणे वैयासिक्याम् अष्टादशसाहस्र्याम् पारमहंस्याम् संहितायाम् चतुर्थस्कन्धे प्रचेत उपाख्यानम् नाम एकत्रिंशोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।